ऋषणीहृतम् मघवानमुख्या अमिन्द्रम् गिरो बृहतीरभ्यनूषत वावृधानम् पूर्वभूतम् सुव्यक्तिभिरमत्यम् चरमानम् दिवे दिवे शतक्रतुमन्नवम् साकिनन्दरम् गिरो मयिन्द्रमुपयन्ति विश्वताः वाजसनिम् पूर्भिदम् तूर्णीमप्तुरम् धामसा चमभिषाचम् सर्विदम् आकरे वसो जलितापनस्य ते नेहसस्तु भयिन्द्रो दुवस्यति इमस्वदस्वदनाहि विप्रिये सत्रासाहमभिमादिहनम् स्तुहि गृणामत्वारतामलङ्गेर्भिरुक्तैरभिप्रभीरमर्चता सबाधाः समन्धादे गुरुमाजोजीः ते नमो अस्य प्रतिभजे कजीषे भूर्वीरस्य निष्कृधो मर्त्येषु भूवसू निपृथिवी बिभर्ति इन्द्रायद्या भवोषधीर्लापो रयिम् रक्षन्ति जीरयोवनानि तुभ्यम् ब्रह्माणि गिर इन्द्र तुभ्यम् सत्रादधिरे हरिवो जुषस्व आविरवसो नूतनस्य सखे वसो जरिदृभ्योपयोधाः इन्द्रमरुत्वयिह वायुषो मञ्जथाचार्याते अबीभस्सुकस्य तव प्रणीतेतव सूरसर्मन्नामे वासन्ति कवयस्तु यज्ञाः समावसान इह पाधिरोमम् मरुद्भिरिन्द्रसखेभिः सुतम् नाः जातम् यत्त्वा परि देवा अभूषन्महे भराय पुरुहूत विश्वे अप्तूर्ये मरुत आपिरेषो मन्दन्निन्द्रमनुदातीवाराः तेभिः साकम् पीपतु वृत्रघातः सुतम् सोमम् दातुषस्वे सधस्ते इदम् ह्यन्वोचसा सुतम् राधानाम् पते त्वा अस्य गिर्वणः यस्ते अनुस्वधामसत्सुते नियच्छतन्वम् सत्त्वा ममत्तु सोम्यम् रते अस्मोतु कुक्षोप्येन्द्रब्रह्मणाशिराः प्रबाहू सूरराधसे